पुण्यं पापं पिता तथा स्वभावोन उपदेशेन शक्यते कर्तुमन्यथा कर्मायत्तं फलं पुंसाम् बुद्धिकर्मानुसारिणी अन्यक्षेत्रे कृतं पापम् क्षेत्रे विनश्यति शस्त्रक्षेत्रे कृतं पापं वज्रलेपो भविष्यति विद्या शस्त्र च शास्त्रं च वैविध्ये प्रतिपत्तये शस्त्रेण रक्षिते जीवे शास्त्र नाश प्रवर्तते प्रतिशाढ्यं एषः निसर्ग प्रतिपादनम् शस्त्रं प्रतिशस्त्रं एषः कुरुक्षेत्रस्य संविधान् वनानि दहतः वन्ये काष्ठं काष्ठं समेयतां स एव सर्वनाशाय शस्त्रं शस्त्रं समेयताम्